एसा रेडियो नेपालः सम्प्रति समाचाराः श्रीयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। प्रधानमन्त्री शेरबहादुर देउवा कथयति स्वास्थ्य विज्ञानस्य क्षेत्रे अन्तर्राष्ट्रिय स्तरस्य अध्ययनम् अनुसन्धानम् च प्रवर्ध्य देशस्य कृते आवश्यक दक्ष जस स्वास्थ्य जनशक्तेः उत्पादने बलं दातुम् आवश्यकमस्ति। पोखरा स्वास्थ्य विज्ञान प्रतिष्ठानस्य पञ्चम्यां सभायां ह्यः प्रधानमन्त्री देउवा अवासत प्रतिष्ठानेन गण्डकी प्रदेशस्य नागरिकाणां कृते गुणस्तरीय स्वास्थ्य सेवायाः प्रदानेन सह सहजतया सुलभतया च चिकित्सा शिक्षायाः अध्ययनस्य अध्यापनस्य च अवसरोऽपि प्रदीयमानोऽस्ति। प्रधानमन्त्री देउवा प्रतिष्ठानेन चिकित्साशास्त्रे दक्ष जनशक्तेः उत्पादनस्य प्रतिष्ठानस्य रूपेण संस्थापितम् इत्यत्र आत्मना हर्षमनुभूतमस्तीति अगदत्। प्रतिष्ठानेन सर्वसाधारणजनेषु प्राप्यमाणां स्वास्थ्यसेवाम् आगामि दिनेषु अतिरिक्तां स्तरीयां व्यवस्थितां च विधाय चिकित्सालयस्य सेवायाम् अधिकाधिक जनतासु अधिगमनस्य विस्तारः आवश्यको स्थिति चर्चयन् प्रधानमन्त्री देउवा अवोचत् विश्वव्यापिन्याः महामार्याः रूपेण कोविड ऊनविंशतेः विषाणोः प्रसारणस्य अवस्थायाम् अपि परीक्षणस्य उपचारस्य च कृते अनेन प्रतिष्ठानेन प्रापिता सेवा प्रशंसनीया वर्तते। सत्तारूढदलैः संघटितायाः निर्वाचनपूर्वकार्यानुगमन समितेः गतदिने उपविष्टे उपवेशे नैर्वाचनिक समन्वयस्य स्वरूपस्य विषये विमृष्टमस्ति। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे उपविष्टे उपवेशे सत्तारूढदलानां मध्ये विधातव्यस्य नैर्वाचनिक समन्वयस्य रणनीतेः स्वरूपनिर्माणस्य विषये औपचारिकरूपेण विमृष्टमिति समितेः सदस्यः डॉ बेदुराम भूषालः ज्ञापयत्। नैर्वाचनिक समन्वयाय अतिरिक्तं गृहकार्यं विधाय अस्यैव चैत्रमासस्य सप्त विंशे दिवसे उपवेक्ष्यमाणे अपरस्मिन् उपवेशे निर्णेष्यते इति सदस्यः डॉ भूषालः अबोधयत्। कांग्रेसदलस्य वरिष्ठनेतुः रामचन्द्र पौडेलस्य नेतृत्वस्य एतस्यां समितौ कांग्रेसदलस्य महामन्त्रिणा गगनथापा विदेन संचार सूचना प्रविधि मन्त्रिणा ज्ञानेन्द्र बहादुर कार्किणा च सहिताः गठबन्धने सहभागिनां दलानां दश नेतारः सदस्याः सन्ति। समितौ नेकपा माओवादी केन्द्रात् देवगुरूङ वर्षमान पुञ्च नेकपा एकीकृत समाजवादिनः पक्षतः महासचिवः डॉ भूषालः उपमहासचिवः डॉ विजय पौडेलश्च दशपा नाम्नो जनता समाजवादी दलात् अशोक राई भौतिक पूर्वाधार मन्त्री रेणु कुमारी यादवश्च जनमोर्चा दलात् हिमलाल पुरी च सदस्याः सन्ति। निर्वाचनायोगेन आगामिनो वैशाख मासस्य त्रिंशे दिवसे सम्पत्स्यमानस्य स्थानीयस्तराणां निर्वाचनस्य पूर्वकार्यं तीव्रं जायमानम् अस्तीति ज्ञापितं वर्तते। सर्वकारीय संचार माध्यमानां प्रमुखैः प्रतिनिधिभिश्च सह ह्यः आयोजिते विमर्शने प्रमुख निर्वाचनायुक्तः दिनेश कुमार थपलिया कर्णाली प्रदेशाय आवश्यकानि मतपत्राणि मुद्रितानि सन्ति एवं अद्यतः सुदूर पश्चिम प्रदेशाय मतपत्राणां मुद्रणं प्रारभ्यते इति अज्ञापयत्। प्रमुख निर्वाचनायुक्तः थपलिया निर्वाचनं स्वच्छं स्वतन्त्रं मितव्ययी भयरहितं च सम्पादयितुं सर्वेषां दायित्वमस्तीति हेतोः सम्पूर्ण स्रोत साधनानि जनशक्तिं च स्थानीयस्तराणां निर्वाचने केन्द्रीकर्तुं निरदिशत्। स्वस्य प्रकाशनस्य प्रसारणस्य च माध्यमेन सूचनां सन्देशान् च कार्यक्रमे समावेष्टुम् असौ अनुरुणत्। तदवसरे रेडियो नेपालस्य नेपाल टेलिभिजन संस्थानस्य गोर्खापत्र संस्थानस्य राष्ट्रिय समाचार समितिश्च प्रमुखाः प्रतिनिधयश्च सहभागिनः आसन्। नेपालेन भारतीयापणे अतिरिक्तां पञ्चविंशत्यधिक शतत्रय मेगावाट परिमितां विद्युतं विक्रेतुम् अनुमतिः प्राप्ता वर्तते। मन्त्रालये गतदिने आयोजिते पत्रकार सम्मेलने ऊर्जो जलस्रोत सिंचन मन्त्री पम्फा भूषालः नेपालेन भारतीयापणे अतिरिक्त विद्युतो निर्याताय स्वीकृतिः प्राप्तेति अज्ञापयत्। मन्त्री भूषालः भारतीयापणे विद्युत् विक्रयणाय स्वीकृति प्राप्तेः अनन्तरं भारत भ्रमणस्य क्रमे देशद्वयस्य प्रधानमन्त्रिणोः सहमत्या प्रकाशितं नेपाल भारत ज्वाइंट विजन स्टेटमेंट ऑन पावर सेक्टर कोऑपरेशन नामकं ऊर्जा क्षेत्रस्य सहयोग सम्बद्धं नेपाल भारत संयुक्त दृष्टिकोण वक्तव्यं क्रियान्वयनस्य चरणे प्रविष्टमस्ति अवोचत्। ऊर्जा सचिव देवेन्द्र कार्की नेपाल भारतयोर्मध्ये धृता ऊर्जा क्षेत्रस्य सहयोग सम्बद्धा नेपाल भारत संयुक्त दृष्टिकोण विषयिणी सहमति ऊर्जा उत्पादने प्रसारणे व्यापारे च केन्द्रितास्तीति ज्ञापितवान्। सचिव कार्की अवदत् नेपालेन बांग्लादेशेऽपि विद्युतो विक्रयणाय योजना निर्मिता वर्तते। नेपाल विद्युत प्राधिकरणस्य कार्यकारी निदेशकः कुलमान घिसिङ भारतात् नेपालेन महार्घमूल्येन विद्युत क्रीतेति प्रवादः सत्यो नास्तीति भाषमाणः आनुपातिकरूपेण सप्त रूप्यकैः विंशत्यापणैश्च विद्युत क्रियमाणास्तीति ज्ञापितवान्। असौ स्वल्प समये आकस्मिक समस्यायाम् उद्भूतायां सत्यामपि उद्योगिभिः प्रवादं विस्तार्य राजनीतिं कर्तुम् अभीप्सितमिति न्यस्चिनोत्। कार्यकारी निर्देशक घिसिङ वर्तमान आर्थिक वर्षस्य नवसु मासेषु आसन्नाष्टाब्जानम् रूप्यकाणाम् विद्युत् कृतेति ज्ञापयन् अगदत् एतदाधारेण एतदीय आर्थिक वर्षे दशाब्जानाम् रूप्यकाणाम् विद्युत् क्रेष्यते। प्रतिनिधि सभायाः अन्तर्गततया उद्योग वाणिज्य श्रमोपभोक्तृ हित समित्या पुंगीफलस्य आयातस्य अनुमतिम् तत्कालम् रोद्धुम् निर्दिष्टम् वर्तते। ह्यः समितेः उपविष्टेन उपवेशेन उद्योग वाणिज्यापूर्ति मन्त्रालयस्य सचिवेन उद्योग विभागेन वाणिज्य विभागस्य महानिर्देशकेन च सह विमृश्य तत्कालम् पुंगीफलस्य आयातम् रोद्धुम् निर्दिष्टमस्ति। समितेः सभापति विमल प्रसाद श्रीवास्तवः दाङ भैरहवा नेपालगंज प्रभृतीनि स्थानानि अनुगमनाय गन्तुम् इच्छितमस्तीति निगद्य आयातस्य अनुमतिम् रोद्धुम् निर्दिष्टवान्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः कथयति आगामिनि निर्वाचने गठबन्धनेन सहभागिनो भवितुम् सहमति धृता वर्तते। चितवन जनपदस्य भरतपुरे ह्यः आयोजिते कार्यक्रमे अध्यक्षः प्रचण्डः अकथयत् संविधानं परिवर्तनं च रक्षितुम् स्थानीय स्तराणां प्रदेशसभानां प्रतिनिधिसभायाश्च निर्वाचनेषु गठबन्धनेन प्रतिस्पर्धितुम् आवश्यकम् अस्ति। अध्यक्षः प्रचण्ड अवदत् प्रतिगामि शक्तिम् पराजित्य लोकतान्त्रिक शक्तिभिः संघटितः सर्वकारः राष्ट्रस्य नेपाली जनतायाश्च समस्याम् दीर्घकालिकरूपेण समाधातुम् क्रियाशीलो वर्तते। अध्यक्षः प्रचण्डः भूमि प्राप्तेः राष्ट्रियाभियानम् द्रुतगत्या अग्रे वर्धाप्य भूमिहीनान् जनान् भूमिपतीन् विधातुम् सर्वकारम् भूमि आयोगस्य पदाधिकारिणम् च अनुरुणत्। कार्यक्रमे भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री शशि श्रेष्ठ अवदत् गृह भूमिहीनेभ्य भूमिहीन दलितेभ्य अव्यवस्थितरूपेण निवसद्भ्यश्च जनेभ्यो भूस्वामित्व प्रमाणपत्राणि प्रदाय भूमि प्राप्तेः अभियानाय निरन्तरता प्रदास्यते। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल भाषते राष्ट्र निर्माणे सर्वेषां सहयोग आवश्यको वर्तते। ह्यः जनकपुरे आयोजिते कार्यक्रमे अध्यक्षो नेपाल अवासत अधिकाराणां प्राप्तये सद्भाव सहकार्ययोः आवश्यकता वर्तते। अध्यक्षो नेपाल स्वस्य प्रधानमन्त्रिणः पदासीनावस्थायां विद्यापतिकोषः संस्थापितः इति चर्चयन् मैथिली भाषा साहित्ययोः समृद्धये राज्यपक्षतः विधातव्याय सहयोगाय आत्मनः तत्परता भवतीति समस्पष्टयत्। कार्यक्रमे मध्यप्रदेशस्य मुख्यमन्त्री लालबाबु राउत अवदत् मधेस प्रदेश सर्वकारेण यथाशीघ्रं भाषा साहित्य संस्कृतीनां विकासाय संरक्षणाय च मधेस प्रज्ञा प्रतिष्ठानं संस्थापयिष्यति। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति राष्ट्रस्य विकासाय समृद्धये च उद्योगी व्यवसायीभिः नेतृत्वं ग्रहणीयम्। नेपाल राष्ट्रियोद्योग व्यवसाय महासंघस्य द्वितीयं राष्ट्रिय महाधिवेशनं ह्यः काष्ठमण्डपे उद्घाटयन् अध्यक्ष ओली अवदत् उद्योग व्यवसाययोः उन्नतिं प्रगतिं च विना राष्ट्रं समृद्धं भवितुं न शक्नोति इति समाचाराः।